एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। संघीय संसदः द्वयोः सदनयोः उपवेशः अध्यवसति। अद्यतने उपवेशे विनियोजन विधेयकस्य सिद्धान्तस्य प्राथमिकतायाश्च विषये विमर्शनस्य सम्भाविता कार्यसूची अस्थिति संघीय संसद सचिवालयस्य महासचिवेन पद्मप्रसाद पाण्डेय विधेन ज्ञापितम् वर्तते। प्रतिनिधिसभायाः उपवेशः प्रातः एकादशवादनाय, राष्ट्रियसभायाः उपवेशश्च सपादैकवादनाय निर्धारितः वर्तते। ह्यः वैशाख शुक्ल पूर्णिमायाम् तिथौ ऊनसप्तत्युत्तर पञ्चविंशतितमी बुद्ध जयन्ती समायोजिता। नेपालस्य मध्यपश्चिम क्षेत्रस्थे तराई प्रदेशे अवस्थितायाम् लुम्बिन्याम् शाक्य वंशीय राजस्य शुद्धोधनस्य राज्ञः मायावत्याश्च पुत्रस्य रूपेण वैशाख शुक्ल पूर्णिमायाम् लब्धजन्मा राजकुमार सिद्धार्थ बोधगयास्थाने ज्ञानस्य सम्प्राप्तेः अनन्तरम् गौतम बुद्धस्य नाम्ना लोकविश्रुतः बभूव। जन्मज्ञान प्राप्ति महापरिनिर्वाण सदृश्य तेस्रो घटना वैशाख शुक्ल पूर्णिमायामेव अभवन् इत्यतः दिनमेतद् बुद्ध जीवनस्य अपूर्व संयोगस्य रूपेण मन्यते। बुद्ध जयन्त्याः उपलक्ष्य बुद्ध जन्मभूमौ लुम्बिनी क्षेत्रे, स्वयम्भू क्षेत्रे, बौद्धनाथ क्षेत्रे, नेपालस्य विविधेषु मठ बौद्ध विहारेषु च धार्मिक समारोह आयोजिताः आसन्। राष्ट्रपति रामचन्द्र पौडेल ह्यः बुद्ध जयन्त्याः अवसरे बौद्धनाथ स्थिते पवित्रे गुरू लाखाङ गुम्बास्थले भगवतः गौतम बुद्धस्य पूजाराधने व्यदधात्। तदवसरे राष्ट्रपतिना पौडेलेन बौद्ध महाचैत्यस्य परिक्रमा पुरस्सरम् अमूल्य अस्तु धातोः दर्शनम् च विहितम् आसीत्। एतदवसरे लुम्बिन्याम् पूर्वे द्युः आयोजिते कार्यक्रमे प्रधानमन्त्री केपी शर्मा ओली भगवतो बुद्धस्य सन्देशाः विश्वस्य कृते प्रेरणादायकाः सन्तीति उक्तवान् वर्तते। तदवसरे प्रधानमन्त्री ओली विश्वस्मिन् विश्वे सम्प्रति बुद्धवादस्य प्रसरणम् जायमानमस्तीत्यतः आगामिनि वर्षे लुम्बिन्याम् अन्तर्राष्ट्रियस्तरस्य बुद्ध जयन्ती समारोह समायोक्ष्यते इति घोषणाम् विहितवान्। ऊनसप्तत्युत्तर विंशतितम्याः बुद्ध जयन्त्याः लुम्बिनी दिवसस्य च अवसरे मूल समारोह समित्या लुम्बिन्याम् आयोजितम् समारोहम् सम्बोधयन् प्रधानमन्त्री ओली संसारस्य पारेकोटिनाम् बौद्ध धर्मावलम्बिनाम् अन्येषाम् च कृते जीवने दर्शनीयतया विद्यमानायाः लुम्बिन्याः धार्मिक पर्यटनस्थलत्वेन विकासार्थम् सर्वकार तत्परोऽस्तीति अभासत। कार्यक्रमे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेयः बुद्धस्य जन्मस्थलम् लुम्बिनी क्षेत्रम् आधिक्येन आध्यात्मिक चिन्तनस्य स्थलत्वेन विकसयितुम् आवश्यकता स्थिति अगदत्। ह्य एव बुद्ध जयन्त्याः अवसरे स्वयम्भूवर्तिनी आनन्दकुटी विहारे आयोजितायाम् सार्वजनिक बौद्ध सभायाम् प्रधानमन्त्री केपी शर्मा ओली लुम्बिन्याः संरक्षणम् बुद्धस्य ज्ञानस्य विस्तारश्च विधातव्यो इति उदैरयत्। बुद्ध जयन्त्याः अवसरे ह्य काभ्रे जनपदस्य पनौती स्थानात् नमो बुद्ध स्तूपम् यावत् शान्ति पदयात्रा आयोजिता च आसीत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति कर्णाली प्रदेशस्य न केवलम् श्रवणत्वेन अपितु दर्शनत्वेन च सार्वजनिक सेवा प्रसारणम् अग्रे वर्धितमस्ति। ह्यः सुर्खेत जनपदस्य वीरेन्द्रनगरे नेपाल टेलिभिजन संस्थानस्य कर्णाली प्रादेशिक प्रसारण कार्यालयस्य उद्घाटनम् रेडियो नेपालात् खसभाषायाम् समाचार प्रसारणस्य च शुभारम्भम् विदधान मन्त्री गुरूङ सार्वजनिक सेवा प्रसारणस्य माध्यमेन रेडियो नेपालस्य नेपाल टेलिभिजनस्य च प्रसारणम् अतिरिक्तम् जनता केन्द्रितम् विधातुम् प्रवर्तितमस्तीति असूचयत्। संचार मन्त्री गुरूङ जनताम् प्राथमिकतायाम् संस्थाप्य कर्णाली प्रदेशस्य विभिन्न गतिविधीनाम् रेडियो प्रसारणेन सहैव टेलिभिजनस्य च माध्यमेन श्रावणस्य प्रदर्शनस्य च दायित्वम् सार्वजनिक सेवा प्रसारण नेपालेन गृहीतमस्तीति प्रावोचत। कार्यक्रमे कर्णाली प्रदेशस्य मुख्यमन्त्री यमलाल कणेलः कर्णाली प्रदेशम् केन्द्रबिन्दौ संस्थाप्य नेपाल टेलिभिजनस्य कर्णाली प्रादेशिक कार्यालयस्य रेडियो नेपालात् खसभाषायां समाचार प्रसारणस्य विहितं शुभारम्भं च प्रति सार्वजनिक सेवा प्रसारणेन सह नेपाल सर्वकाराय धन्यवादं प्रायच्छत। कार्यक्रमे सार्वजनिक सेवा प्रसारणस्य सेवा विश्वसनीयां सुदृढां च विधातुं स्तरत्रयस्य सर्वकाराणां सहयोगस्य अपेक्षा स्थिति सार्वजनिक सेवा प्रसारण नेपालस्य अध्यक्ष महेन्द्र विष्टः प्रत्यपादयत्। गण्डकी प्रदेशस्य स्थानीय स्तराणां न्यायिक समितिनां द्वितीयं न्यायिक सम्मेलनं ह्यः सम्पन्नमस्ति। दिनद्वयं यावत् बागलुङ आपणे आयोजितेन सम्मेलनेन अष्टसूत्रात्मकं बागलुङ घोषणापत्रं प्रकाशितं वर्तते। घोषणापत्रे न्याय सम्पादने एकरूपतायाः आनयनाय न्यायिक समितेः संस्थागत विकासाय च प्रतिबद्धता व्यक्तास्ति। संविधाने स्थानीय सर्वकार सञ्चालनाधिनियमे च वर्तमानायाः व्यवस्थायाः अनुसारेण न्यायिक समितेः कार्याणां प्रक्रियागत रूपेण विधिसम्मत रूपेण च सञ्चालनाय गण्डकी प्रदेशस्य 85 स्थानीय स्तराणां न्यायिकपीठानां एकरूपतया सञ्चालनस्य विषय घोषणापत्रे उल्लिखितो वर्तते। प्रतिकूलस्य वातावरणस्य कारणेन ह्य सगरमाथा कञ्चनजंघा प्रवृत्तिनां हिमालयानां आरोहणं प्रभावितमस्ति। पर्यटन विभागस्य अनुसारेण सगरमाथा शिखरे तीव्रगतियुतेन वातेन आरोहणं प्रभावितं वर्तते। विभागस्य निर्देशकस्य हिमाल गौतमस्य अनुसारेण आरोहणाय तत्परावस्थायां स्थिताः बहवः आरोहिणः सम्प्रति सुरक्षितस्थलं प्रति प्रत्यावर्तमानाः सन्ति। वातावरणस्य प्रतिकूलावस्थायाः कारणेन आसन्न चत्वारि दिनानि सगरमाथा शिखरस्य आरोहणं न सम्भवतीति ज्ञापितं वर्तते। वसन्तर्तौ सगरमाथा शिखरारोहणम् अस्यैव वैशाख मासस्य षड्विंशात् दिवसात् प्रारब्धम् आसीत्। सगरमाथा संवादस्य प्रथम संस्करणस्य पूर्व कार्यम् अन्तिमचरणे प्राप्तम् अस्तीति सर्वकारेण ज्ञापितं वर्तते। आगामिनि शुक्रवासरे सगरमाथा संवादस्य समुद्घाटनस्य पूर्वकार्येण सह गृहकार्यं विधीयमानमस्तीति प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन ज्ञापितं वर्तते। सगरमाथा संवादस्य प्रथम संस्करणं जलवायु परिवर्तनं हिमालयानां मानवानां च भविष्यमिति समाघोषेण सह आयोक्ष्यमाणं वर्तते।